इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् इण्डिया फर्स्ट इति देशस्य विदेशनीतेः मन्त्रः जातः। सः अवदत् यत् नवदिल्ली न केवलं विश्वस्य व्यवस्थायां भागं गृह्णाति अपितु भविष्यस्य स्वरूपनिर्माणे संरक्षणे चापि योगदानं ददाति। श्रीमोदी ह्यः नवदिल्ल्यां निजवार्ता प्रवाहिक्या आयोजितं कार्यक्रमं सम्बोधयन् आसीत्। प्रधानमन्त्रिणा उक्तं यत् भारतेन एकाधिकारस्य अपेक्षया मानवतायाः प्राथमिकता प्रदत्ता। सहभागितां सुनिश्चित्य एकविंशतिशतकस्य वैश्विकसंस्थायाः निर्माणस्य मार्गः प्रशस्तः अस्ति। सः अवदत् यत् अधुना भारतं केवलं स्वप्नराष्ट्रं नास्ति अपितु कर्मराष्ट्रम् अपि अस्ति। अन्ताराष्ट्रिय मुद्रा कोषस्य प्रतिवेदनानि उद्धृत्य श्रीमोदी अवदत् यत् सम्प्रति विश्वं भारतं प्रति पश्यति। भारतं विश्वस्य एकमेव प्रमुखा अर्थव्यवस्था अस्ति, यत् केवलं दशवर्षेषु एव सकल राष्ट्रियोत्पादस्य द्विगुणीकरणं कृतवान्। भारते प्रायः 25 कोट्यावत् जनाः दारिद्र्यात् बहिस्समागताः। वैश्विकसमाह्वानान् निवाराय विश्वम् एकत्रितं भवितव्यम् इति सः उल्लेखितवान्, येषु एकः ऊर्जासंसाधनानां विषयः अपि अस्ति। व्यापार असन्तुलनस्य रसदविषयाणां वैश्विकसमाह्वानानां च विषये प्रवदन् श्रीमोदी भारत मध्यपूर्व यूरोप आर्थिकवीथ्या सह नूतनानाम् उपक्रमानाम् आरम्भाय विश्वेन सह भारतस्य सहकारिप्रयत्नान् प्रकाशितवान्। भारतेन ह्यः आगतस्य भूकम्पस्य अनन्तरं म्यान्मारदेशं प्रति प्रायः 15 टनमितं साहाय्योद्धार सामग्री प्रेषिता। भारतीय वायुसेनायाः C-30 जे इति विमानं हिण्डन वायुसेनास्थानकात् सहायतां प्रेषितम्। साहाय्योद्धार सामग्रीषु अस्थायि निवासं, शयनपुटकं, कम्बलं, भोजनं, जनरेटर सेट इति विद्युतोत्पादनयन्त्रादीनि आवश्यकवस्तूनि च सन्ति। तदतिरिक्तम् आपत्प्रभावितानां जनानां कृते महत्वपूर्णचिकित्सासामग्र्यः अपि प्रेष्यन्ते। देशे वैद्युतकवस्तूनां निर्माणं वर्धयितुं, वैद्युतक आपूर्तिशृङ्खलां सुदृढां कर्तुं च सर्वकारेण वैद्युतकघटकनिर्माणयोजनायाः अनुमोदनं कृतमस्ति। ह्यः नवदिल्ल्यां वार्ताहरैः सह चर्चायां सूचना प्रसारणमन्त्री अश्विनी वैष्णवः अवदत् यत् विगत दशवर्षेषु वैद्युतक क्षेत्रे प्रचण्ड वृद्धिः अभवत्। सः अवदत् यत् वैद्युतक उत्पादनं 17% प्रायः 5 गुणितं यावत् वर्धिता अस्ति। तत्रैव वैद्युतक निर्यातेषु अपि 20% यावत् वृद्धिः अभवत्। केन्द्रीय मन्त्रिमण्डलेन बिहारस्य कोसी मेची अन्तर्राज्य योजना परियोजनायाः प्रधानमन्त्री कृषि सिंचन योजना त्वरित सिंचन लाभ कार्यक्रमस्यान्तर्गतं समावेशस्य अपि स्वीकृतिः प्रदत्ता। परियोजनायाः उद्देश्यं बिहारस्य अररिया पूर्णिया किशनगंज कटिहार जनपदेषु 10,000-2,00,000 हेक्टेयर मितं अतिरिक्तं वार्षिकं सिंचनं प्रदातुं वर्तते। 25,000-2,000 एशियाई मल्लयुद्ध प्रतिस्पर्धायां भारतीय मल्लयुद्ध क्रीडिका मनीषा भानवाला 21,000-2,000 संस्करणात् परं भारतस्य प्रथमं स्वर्णपदकं प्राप्तवती। तत्रैव अन्तिम पंघालः ह्यः जॉर्डन देशस्य अम्मान नगरे कांस्यपदकं विजितवान्। इण्डियन प्रीमियर लीग इत्यस्यां क्रिकेट क्रीडामालिकायां चेन्नई नगरस्य एमए चिदम्बरम क्रीडांगणे गतरात्रौ रॉयल चैलेंजर्स बेंगलुरु दलेन चेन्नई सुपर किंग्स इत्येतं दलं 50 धावनांकैः पराजितम्। इति वार्ताः।